श्री परमात्मने नमः। अथ पञ्चदशोऽध्याय श्री भगवानुवाच। ऊर्ध्वमूलमधःशाखमश्वत्थम् प्राहुरव्ययम् छन्दांसि अस्य पर्णानि यस्तम् वेद स वेदवित्।
अनश्वर्गम् प्रसृतास्तस्य शाखा गुण प्रवृद्धा विषय प्रवाल।
अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्नत सम्प्रतिष्ठा। अश्वत्थमेनम् सुविरूढमूलमसङ्गशस्त्रेण दृढेन चित्वा ततः पदम् तत्परिमार्गितव्यम् यस्मिन् गता न निवर्तन्ति भूय। तमेव चाद्यम् पुरुषम् प्रपद्ये यतः प्रवृत्तिः प्रसिद्धा पुराणी। निर्माणमोहाजितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामा द्वन्द्वैर्विमुक्ता सुखदुःखसङ्गैर्गच्छन्त्यमूढः पदमव्ययम् तत् न तद्भाषयते सूर्यो न शशाङ्को न पावकः। यद्गत्वा न निवर्तन्ते तद्धाम परमम् मम ममैवांशो जीवलोके जीवभूतः सनातनः। मनःष्ठानि इन्द्रियाणि प्रकृतिस्थानि कर्षति शरीरम् यदवाप्नोति यच्चापि क्रामतीश्वरः। गृहीत्वैतानि संयाति वायुगन्धानि भाषयात् श्रोत्रम् चक्षुस्पर्शनम् च रसनम् घ्राणमेव च।
अधिष्ठाय मनश्चायम् विषयानुपसेवते उत्क्रामन्तम् स्थितम् वापि भुञ्जानम् वा गुणान्वितम्
विमूढानानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः। यतन्तो योगिनश्चैनम् पश्यन्त्यात्मन्यवस्थितम् यतन्तोऽप्यकृतात्मानो नैनम् पश्यन्ति चेतसः। यदादित्यगतम् तेजो जगद्भासयतेऽखिलम् यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्। गामाविश्य च भूतानि धारयाम्यहमोजसा उष्णामि चौषधिः सर्वाः सोमो भूत्वा रसात्मकः। अहम् वैश्वानरो भूत्वा प्राणिनाम् देहमाश्रितः प्राणापानसमायुक्तः पचाम्यन्नम् चतुर्विधम् सर्वस्य चाहम् विसन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनम् च। वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव च। द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च। क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते। उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदारितः यो लोकत्रयमाविश्य विवर्त्यव्यः ईश्वरः। यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तम अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तम। यो मामेवमसम्मूढो
जानाति पुरुषोत्तमम्
स सर्वविद् भजति माम् सर्वभावेन भारत इति गुह्यतमम् शास्त्रमिदुमुक्तम् मया नघ। एतद्बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत कृतकृत्यश्च भारत। ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः।